Lesson 37, Exercise 2, page 325.
Ajanite rajan putraha tadaham tubhyameva dadami ya evam satyamavadih idam amrafalam vruksha dapaptat mano himsit janita yav prithivyaha उपाध्यायो देवान अपूपुजत अधुना तिथयो यथिष्टं भुञ्जताम् किम् यूयम् अवोचत पुनरपि कथयत नाहम् अवहितो भुवम् मामे पुत्राः परस्परं द्विक्षन् निति विचिन्त्य अस्माकं पिता आसन्ने मरणे रिक्थस्य समानांश्चतुरो भागान् अकार्षीत् कनिष्ठं पुत्रमहमवोचम् पुत्रक कुसुमपुरं गत्वा तत्रैकस्मिन् गृहे मया निक्षिप्तं धनमास्ते तद्गृहाण सो गच्छत् निवृत्त्य च मामुवाच तात भ्रातरो मे तत्रागत्यास्मभ्यमेतद्धनं पिता दादिति वदन्तः सर्वमेव तदादिशत् इमं ग्राममागच्छन्तौ भवन्निर्दिष्टे गहने वने नानापक्षिसमाकुलं महावटवृक्षं तमीक्षां चक्रुवहे हे राम त्वं मां वने हासीः इति सीता व्याहर्षीत् येन मुरारिसमर्चाकारि तस्य चर्चां यमो न कुरुते तेन नरेण निष्कारणं पिशुनं वचो व्याहारी स मामद्राक्षीत् नाहं तमद्राक्षम् मा गाः इत्युक्त्वा तयाहमवरुद्धः त्वं मां वन एव परित्यज्य नगरमयासीः